ओम नमो भगवते वासुदेवाय। अथैकोनाशीतितमोऽध्यायः। श्रीशुक उवाच। ततः पर्वणि उपावृत्ते प्रचण्डः पांशुवर्षणः भीमो वायुरभूत् राजन् पूयगन्धस्तु सर्वशः। ततो मेध्यमयं वर्षं बल्वलेन विनिर्मितम् अभवत् यज्ञशालायां सोऽन्वदृश्यत शूलधृक्। तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् तप्तताम्रशिखास्मश्रुम् दंष्ट्रोग्रभ्रुकुटीमुखम् सस्मारमुसलम् रामः परसैन्यविदारणम् हलम् च दैत्यदमनम् ते तूर्णमुपतस्थतुः। तमाकृष्य हलाग्रेण बल्वलम् गगनेचरम् मुसलेना हनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहम् बलः। सोपतत् भुवि निर्भिन्न ललाटो सृक् समुत्सृजन् मुञ्चन्नार्तस्वरम् शैलो यथा वज्रहतोरुणः। संस्तुत्य मुनयो रामम् प्रयुज्या वितथाशिषः। अभ्यषिञ्चन् महाभागा वृत्रघ्नम् विबुधा यथा वैजयन्तीम् ददुर्मालाम् श्रीधामाम् लानपङ्कजाम्। रामाय वाससि दिव्ये दिव्यान्याभरणानि च। अथ तैरभ्यनुज्ञातः कौशिकी मेत्य ब्राह्मणैः। स्नात्वा सरोवरमगात् यतः सरयुराश्रवत् अनुस्रोतेन सरयूम् प्रयागमुपगम्य सः। स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् गोमतीम् गण्डकीम् स्नात्वा विपाशाम् शोण आप्लुतः। गयाम् गत्वा पितृनिष्ट्वा गङ्गासागर सङ्गमे उपस्पृश्य महेन्द्राद्रौ रामम् दृष्ट्वाभिवाद्य च। सप्तगोदावरीम् वेणाम् पम्पाम् भीमरथीम् ततः स्कन्दम् दृष्ट्वा ययौ रामः श्रीशैलम् गिरिशालयम्। द्रविडेषु महापुण्यम् दृष्ट्वाद्रिम् वेङ्कटम् प्रभुः। कामकोष्णीम् पुरीम् काञ्चीम् कावेरीम् च सरिद्वराम् श्रीरङ्गाख्यम् महापुण्यम् यत्र सन्निहितो हरिः। ऋषभाद्रिम् हरेः क्षेत्रम् दक्षिणाम् मथुराम् तथा सामुद्रम् सेतुमगमन् महापातकनाशनम्। तत्रायुतमदाद्धेनोर्ब्राह्मणेभ्यो हलायुधः कृतमालाम् ताम्रपर्णीम् मलयम् च कुलाचलम्। तत्रागस्त्यम् समासीनम् नमस्कृत्याभिवाद्य च। योजितस्तेन चाशीर्भिरनुज्ञातो गतोर्णवम् दक्षिणम् तत्र कन्याख्याम् दुर्गाम् देवीम् ददर्शसः। ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् विष्णुसन्निहितो यत्र स्नात्वा स्पर्शद्गवायुतम् ततोऽभिव्रज्य भगवान् केरलांस्तु त्रिगर्तकान्। गोकर्णाख्यम् शिवक्षेत्रम् सान्निध्यम् यत्र धूर्जटेः आर्याम् द्वैपायनीम् दृष्ट्वा शूर्पारकमगाद् बलः। तापीम् पयोष्णीम् निर्विन्ध्यामुपस्पृश्याथ दण्डकम् प्रविश्य रेवामगमत् यत्र माहि स्मतीपुरी। मनुतीर्थमुपस्पृश्य प्रभासम् पुनरागमत् श्रुत्वा द्विजैः कथ्यमानम् कुरु पाण्डव संयुगे सर्वराजन्यनिधनम् भारम् मेने हृतम् भुवः। स भीम दुर्योधनयोर्गदाभ्याम् युद्धतोर्मृधे वारयिष्यन् विनशनम् जगाम यदुनन्दनः। युधिष्ठिरस्तु तम् दृष्ट्वा यमौ कृष्णार्जुनावपि अभिवाद्या भवन्स्तूष्णीम् किम् विवक्षुरिहागतः। गदापाणि उभौ दृष्ट्वा संरब्धौ विजयैषिणौ मण्डलानि विचित्राणि चरन्ताविदमब्रवीत्। युवाम् तुल्यबलौ वीरौ हे राजन् हे वृकोदर एकम् प्राणाधिकम् मन्ये उतैकम् शिक्षयाधिकम्। तस्मादेकतरस्येह युवयोः समवीर्ययोः न लक्ष्यते जयोऽन्यो वा विरमत्वफलोरणः। न तद्वाक्यम् जगृहतुर्बद्धवैरौ नृपार्थवत् अनुस्मरन्तावन्योन्यम् दुरुक्तम् दुष्कृतानि च। दिष्टम् तदनुमन्वानो रामो द्वारवतीम् ययौ उग्रसेनाधिभिः प्रीतैर्ज्ञातिभिः समुपागतः। तम् पुनर्नैमिषम् प्राप्त मिषयो याजयन्मुदा क्रत्वङ्गम् क्रतुभिः सर्वैर्निवृत्ताखिल विग्रहम् तेभ्यो विशुद्ध विज्ञानम् भगवान् व्यतरद्विभुः। येनैवात्मन्यतो विश्वमात्मानम् विश्वगम् विदुः। स्वपत्न्यावभृतस्नातो ज्ञातिबन्धुसुहृद्वृतः रेजे स्वज्योत्स्नये वेन्दुः सुवासः सुष्ठुवलङ्कृतः। ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिनः अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि। योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मणः सायम् प्रातरनन्तस्य विष्णोः सदयितो भवेत्। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कंधे उत्तरार्धे बलदेवतीर्थयात्रा निरूपणं नामैकोनाशीतितमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।